आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् विश्वकर्मा योजना भारतस्य विकासाय सहस्रवर्ष पुरातन कौशलानाम् उपयोगाय दिग्निर्देशः अस्ति। कृषकाणाम् आयवर्धनाय कृषि आधारित उद्योगस्य प्रचारार्थं राष्ट्रपतिः द्रौपदी मुर्मुः बलं प्रदत्तवती। केन्द्रीय गृहमन्त्री अमितशाहः अद्य झारखण्डे परिवर्तन यात्रायाः शुभारम्भं कृतवान्। वरिष्ठ नागरिकाणां कृते निःशुल्कोपचारम् अपि प्रतिज्ञापितवान्। अपि च बांग्लादेशस्य विरुद्धं निकषस्पर्धायां द्वितीय दिनस्य अन्ते भारतं द्वितीये द्वन्द्वे त्रयाणां स्तोभानां हानिः पुरस्सरं एकाशीति धावनांकान् समर्जित्य अष्टोत्तर त्रिशतं धावनांकैः अग्रे चलति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् विश्वकर्मा योजना भारतस्य विकासाय सहस्रवर्ष पुरातन कौशलानाम् उपयोगाय दिग्निर्देशः अस्ति। वर्धायाः स्वावलम्बी क्रीडांगणे पीएम विश्वकर्मा योजनायाः वार्षिकोत्सवे एकं कार्यक्रमं सम्बोधयन् श्रीमोदी पीएम विश्वकर्मा योजनायाः लाभं गृहीत्वा कार्मिकेभ्यः उद्यमिनः व्यापारिणः च भवितुम् आवाहनं कृतवान्। प्रधानमन्त्रिणा उक्तं यत् पारम्परिक व्यापारस्य उत्पादकता वर्धयितुं 6.5 लक्षाधिकेभ्यः लाभार्थिभ्यः आधुनिकयन्त्राणि उपकरणपुस्तिकाः च प्रदत्ताः।
विश्वकर्मा योजना के जरिए हमने श्रम से समृद्धि इसका कौशल से बेहतर कल का जो संकल्प लिया है, वर्धा में बापू की प्रेरणाएं हमारे उन संकल्पों को सिद्धि तक ले जाने का माध्यम बनेगी। मैं इस योजना से जुड़े सभी लोगों, देश भर के सभी लाभार्थियों को इस अवसर पर बधाई देता हूं।
सः ऋण योजनायाः लाभस्य विषये अपि अवदत् यया 3 लक्षरूप्यकाणां ऋणं प्राप्यते। विगते वर्षे 14,00,000 कोटिरूप्यकाणां ऋणानि लाभार्थिभ्यः वितरितानि। प्रधानमन्त्रिणा महाराष्ट्र सर्वकारस्य योजनाद्वयं प्रारब्धम्, येषु यूनां निःशुल्क कौशल विकास प्रशिक्षणार्थम् आचार्य चाणक्य कौशल विकास केन्द्रं तथा च महिला नेतृत्वेन स्टार्टअप आत्मनिर्भरतां प्राप्तुं पुण्यश्लोक अहिल्या देवी होल्कर महिला स्टार्टअप योजना इति कार्यक्रमे प्रधानमन्त्रिणा पीएम मित्र टेक्सटाइल पार्क इत्यस्य आधारः अपि स्थापितः, यत् पश्चिम विदर्भस्य अमरावती मण्डले स्थापितं भविष्यति। तथा च एषा परियोजना 1,00,000 यावत् नूतनानि वृत्त्यावसराणि सृजति तथा च 10,000,00,000 कोटितोप्यधिकं निवेशम् आकर्षयिष्यति। राष्ट्रपतिः द्रौपदी मुर्मू अद्य रांचीनगरस्य नामकुमनगरे ICAR इति राष्ट्रिय द्वितीयक कृषि संस्थानस्य निसा इत्यस्य शतवार्षिक समारोहं सम्बोधितवती। अस्मिन् अवसरे प्रवदन्ति राष्ट्रपतिः मुर्मू अवदत् यत् देशे लैक इति उत्पादनं प्राप्तुं ICAR NISA इत्यनयोः उत्कृष्टं योगदानमस्ति। अनया संस्थया न केवलं कृषिसम्बद्धं अनुसन्धान विकासकार्यं कुशलतापूर्वकं कृतं, अपि तु एतादृशं शोधं कार्यं सर्वसुलभम् अपि कृतमस्ति। राष्ट्रपतिः अवदत् यत् झारखण्डे देशस्य 55% लक्ष्यं यावत् उत्पादनं भवति। कृषकाणाम् आयवर्धनार्थं कृषि आधारित उद्योगस्य प्रचारार्थं राष्ट्रपतिः बलं दत्तवती। राष्ट्रपतिः मुर्मू वैज्ञानिकान् प्रोक्तवती यत् कृषकान् द्वितीयक कृषेः विषये जागरूकं कुर्वन्तु इति। सा प्रोक्तवती यत् अस्मिन् विषये ICAR प्रभावीरूपेण कार्यं कर्तुं शक्नोति। राष्ट्रपति अवदत् यत् कृषकाणां कृते प्रसंस्करण एकांशस्य प्रशिक्षणानन्तरं कृषकाणाम् आयं वर्धिष्यति। राष्ट्रपति मुर्मू अवदत् यत् कृषकैः अपशिष्ट सामग्रीणाम् उपयोगेन तेभ्यः आर्थिक सुदृढीकरणे अपि साहाय्यं भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः प्रतिपादितवान् यत् सर्वकारेण निर्णयः स्वीकृतः अस्ति यत् 26,000 मार्चमासात् पूर्वं नक्सलवादेन नक्सलवादस्य विचारेण च देशः मुक्तः भविष्यति। श्रीशाहः अद्य नवदिल्ल्यां स्वीय निवासस्थाने छत्तीसगढ़े नक्सलहिंसायाः प्रायः 55 पीडितैः सह संवादं कुर्वनासीत्। सः अवदत् यत् बस्तरस्य चत्वारि मण्डलानि विहाय सम्पूर्णे देशे नक्सलवाद समापने केन्द्रं सफलं जातम्। श्रीशाह नक्सले संलग्नानां जनानाम् अपि आवाहनं कृतवान् यत् ते हिंसां त्यक्त्वा शस्त्राणि स्थापयन्तु, आत्मसमर्पणं च कुर्वन्तु। सः अवदत् यत् यदि ते हिंसां विहाय तस्य आह्वानं न कुर्वन्ति तर्हि तेषां विरुद्धं सर्वकारेण शीघ्रमेव अभियानम् आरभते। केन्द्रीय खाद्य मन्त्री प्रह्लाद जोशी उक्तवान् यत् आन्ध्रप्रदेशस्य मुख्यमन्त्रिणा उत्थापितस्य तिरुपति मन्दिरस्य मोदकेषु पशुमेधः अस्ति इति विषयः गम्भीरः विषयो वर्तते। अद्य नवदिल्ल्याम् एकस्मिन् आयोजने वार्ताहरैः सह संवादं कुर्वन् श्रीजोशी अवदत् यत् अस्मिन् विषये विस्तृत परीक्षणं भवितुमर्हति, दोषिणः दण्डनीयाः च। राष्ट्रिय दुग्ध विकास मण्डलस्य प्रयोगशालायाः पशुधन विश्लेषण शिक्षण केन्द्रेण तिरुपति नगरस्य श्री वेंकटेश्वर स्वामी मन्दिरस्य प्रसादरूपेण अर्पिते मोदक निर्माणे प्रयुक्ते घृते पशुमेधस्य उपस्थितेः पुष्टिः कृता अस्ति। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अद्य लाओस देशस्य द्विदिवसीय यात्रायां भविष्यति, येन आसियान भारत आर्थिक मन्त्रिमण्डलान् एकविंशतितमे सत्रे तथा च द्वादशतमे पूर्व एशिया शिखर आर्थिक मन्त्रिणां सभायां भागं गृह्णीयात्। यात्रावधौ मन्त्रिद्वयस्य संस्थागत उपवेशनस्य सहभागिदेशैः स्वसमकक्षैः सह अनेकानि द्विपक्षीयोपवेशनानि अपि करिष्यति। सः आतिथ्य देशस्य लाओ पीडीआर इत्यस्य मन्त्रिणा सह कोरिया मलेशिया स्विट्जरलैण्ड म्यांमार देशानाम् आगन्तुकैः मन्त्रिभिः सह अपि मेलिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य झारखण्डराज्यस्य साहेबगंजमण्डलस्य भोगनाडी स्थलात् झारखण्ड भाजपादलस्य संथाल परगना संभागाय परिवर्तन यात्रायाः शुभारम्भं कृतवान्। पुलिस लाइन इत्यस्मिन् उद्याने जनसभां सम्बोधयन् श्रीशाहः अवदत् यत् परिवर्तन यात्रायाः अनन्तरं राज्ये निर्वाचन प्रचारः आरब्धः अस्ति। श्रीशाहः प्रतिज्ञापितवान् यत् यदि राज्ये भाजपेति दलस्य सर्वकारः भवति तर्हि 57 वर्षतोप्यधिक जनानां कृते 10,00,000 रूप्यकाणि यावत् निःशुल्कम् उपचारं प्रदास्यते। सः आक्षिप्तवान् यत् बांग्लादेशस्य अवैधरीत्या आगतैः राज्यस्य संथाल क्षेत्रस्य जनसांख्यिकीयं परिवर्तनं कृतमस्ति। क्रिकेट क्रीडायां एमए चिदम्बरम क्रीडांगणे बांग्लादेशस्य विरुद्धं निकष स्पर्धायां द्वितीय दिनस्य अन्ते भारतं द्वितीये द्वन्द्वे 3 स्तोभानां हानिः पुरस्सरं 81 धावनांकान् समर्जित्य 78 धावनांकैः अग्रे चलति इति वार्ताः।